श्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामवित्रियवतु श्रीमहागणाधिपतये नमः श्रीमहासरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ अथ पुरुषसूक्तम् तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वञ्जि गातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येष नः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागुश्च पुरुषः पादोऽस्य विश्वभूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्ध्व उदयेत् पुरुषः पादोऽस्येह भवात् पुनः ततो विश्वम् यक्रामत् शासनानशने अभि तस्मात् विराट जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत सन्तो अस्यासीराज्यम् ग्रीष्म इत्म शरद्धविः सप्तास्यासन् परिधयः त्रिः सप्त समिधः कृताः देवायद्यज्ञन्तन्वानाः अबध्नन् पुरुषम् पशुम् तं यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या रसयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् वृषदाज्यम् पशुगुस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रचस्सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्व अजायन्त ये के च भयदतः गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् यदधुः कृतिधाव्यकल्पयन् मुखम् किमस्य कौ बाहु कावूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः ऊरु तदस्य यद्वै स्यः पद्भ्यागुं शूद्र अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णाद्यौ समवर्तत पद्भ्याम् भूमिर्दिशश्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णन्तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदनुजदास्ते धाता पुरस्ताद्यमुदा जहार शक्रः प्रभित्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरसाच्च विश्वकर्मणः समवर्तताधि तस्य त्वस्ता विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णन्तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण तच्छञ्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः अथ श्री सूक्तम् हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् मावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् विन्देयङ्गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीर्मा देवी जुषताम् काम् सोऽस्मिताम् हिरण्यप्राकारमार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णान्तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देव सखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमूर्धिम् ददातु मे क्षुत्विपासामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमुर्धिञ्च सर्वान्निर्नुदमे गृहात् गन्धद्वारान् दुराधर्षान्नित्यपुष्पाङ्करीषिणी ईश्वरीगुम् सर्वभूतानान्तमिहोपह्वये श्रियम् मनसः काममाकूतिम् वाचः सत्यमसीमहि पशूनागुम् रूपमन्नस्य मयि श्रीश्रयतां यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दम श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपस्रजन्तु स्निग्धानि चिक्ले तव स मे गृहे निच देवीम् मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह आर्द्राम् यः करिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् महावह जातवेद लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽस्वान् विन्देयम् पुरुषानहम् यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् श्रियः पञ्चदशर्चम् च श्रीकामः सततम् जपेत आनन्दः कर्दमश्चैव चिक्लीत इति विश्रुताः ऋषयस्ते त्रयः पुत्राः स्वयम् श्रीरेव देवता पद्मानने पद्म ऊरु पद्माक्षी पद्मसम्भवे त्वम् माम् भजस्व पद्माक्षि येन सौख्यम् लभाम्यहम् अश्वदायि च गोदायि धनदायि महाधने धनम् मे जुषताम् देवी सर्वकामार्थसिद्धये पुत्रपौत्रधनम् धान्यम् हस्त्यश्वाजा विगोरथम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् चन्द्राभान् लक्ष्मीमीशानाम् सूर्याभाम् श्रियमीश्वरीम् चन्द्रसूर्याग्निसर्वाभाम् श्रीमहालक्ष्मीमुपास्महे धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्र बृहस्पतिर्वरुणम् धनमश्नुते वैनते यसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनी न क्रोधो न च मात्सर्यन्न लोभो नाशुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसूक्तम् जपेत् सदा वर्षन्तु ते विभावरिदिवो अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यवब्रह्मद्विषो जहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मम् मयि सन्निधत्स्व व्यासा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्नापितैर्मकुम्भैः नित्यं स पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीम् दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभवद्ब्रह्मेन्द्रगङ्गाधराम् त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् शुद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीः सरस्वती श्रीर्लक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशौपाशमभीतिमुद्राङ्करैर्वहन्तीम् कमलासनस्थाम् पालार्ककोटिप्रतिभाम् त्रिनेत्राम् भजेऽहमम्बाम् जगदीश्वरीन्द्राम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात्। अथ मन्योऽसूक्तम् यस्ते मन्यो विधद्वज्रसायक सह ओजः पुष्यति विश्वमानुषक् साह्यामदा समार्यन् त्वया आयुजा सहस्कृतेन सहसा सहस्वता मन्युरिन्द्रो मन्युरेवास देवो मन्युरुहो तावरुणो जातवेदाः मन्युम् विषकीलते मानुषीर्याः पाहिनो मन्यो तपसा सजोषाः अभी मन्यो तपसस्तवी यान्तपसा युजा विजहि शत्रून् अमित्रः वृत्रः दस्युः च विश्वावसून्याभरा त्वन्नः त्वं हि मन्यो अभिभूत्योजा स्वयम्भूर्भामो अभिमातिशाह विश्वचर्षणिः सहुरिः सह वानस्मा स्वोजः पृतना सुधेहि अभागः सन्नपपरे तो अस्मितवक्रत्वात् विषस्य प्रचेतः तन्वामन्यो अक्रतुर्जहीलाहं स्वातनोर्बलदेया आयमेहि अयन्ते अस्म्युपमे ह्यर्वाम् प्रतीचीनः सहुरे विश्वधायः मन्यो वज्रिन्नभिमामावृत्स्वहना वदस्यो रतवोऽध्यापेः अभिप्रेहि दक्षिणतो भवा मेधा वृत्राणि जङ्घना बभूरि जुहोमि ते धरुणम् मध्वो अग्रमुभा उपांशु प्रथमापि बाव त्वया मन्यो सरथमारुजन्तो हर्षमानासो धृषिता मरुत्वः तिग्मेषव आयुधा संशिशाना अभिप्रयम् पुनरो अग्निरूपाः अग्निर्वमन्योत्विषितः सहस्वसेनानीर्णः सहुरे हूतये धि हत्वा यशत्रून् विभजस्व वेद ओजो मिमानो विमृधो नुदस्व सहस्वमन्यो अभिमातिमस्मे रुजन्नृणन्त मृणन्त्रेहि शत्रून् उग्रन्ते पाजो नन्वारुरुध्रे वशीवशम् नयस एकजत्वम् एको बहूनामसि मन्यवीलितो विषम् विषंयुधये संशिशाधि अकृत्तरुत्वया युजावयम् जुमन्तम् घोषम् विजयाय कृण्महे विदेशकृदिन्द्रजिवानवब्रभोस्माकम् मन्यो अधिपा भवेह प्रियन्ते नाम सहुरे गृणीमसि विद्मातमुत्संयत आबभूथ आभूत्या सहजा वज्रसायकसहो बिभर्षभिभूत उत्तरम् कृत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि संसृष्टम् धनमुभयम् समाकृतमस्मभ्यम् दत्ताम् वरुणश्च मन्युः भियम् दधानाहृदयेषु शत्रवः पराजितासो अपनिलयन्ताम् धन्वनागधन्वना जिञ्जये मधन्वना तीव्राः समदो जयेम धनुःशत्रोरवकामम् कृणोति धन्वना सर्वाः प्रदिशो जयेम शान्ता पृथिवी शिवमन्तरिक्षम् जौर्नो देव्यभयन्नो अस्तु शिवादिश प्रदिश उद्दिश न आपो विश्वतः परिपान्तु सर्वतः शान्तिः शान्तिः शान्तिः। अथ भूसूक्तम् भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षम् महित्वा उपस्थे देव्यदितेऽग्निमन्नादमन्नाद्यायादधे आयङ्गौः कृष्णिरक्रमेदसनन्मातरम् पुनः पितरम् च प्रयन्सुवः त्रिगुंशद्धामविराजति वाक्पतङ्गाय शिश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तश्चरति रोचना व्यख्यम् महिषः सुवः यत्त्वा क्रुद्धः परोऽपमन्युनायदवत्या सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि यत्ते मन्युपरोक्तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्देवावसवश्च समाभरन् मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासुकी ब्रह्मवर्चसः पितृणाम् श्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीद समुद्रवती सावित्री आनो देवी मह्यङ्गी महोधरणी महोध्यतिष्ठत् शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषणी इन्द्रपत्नी व्यापिनी सरसिज इह वायुमती जलशयनी स्वयं धाराजा सत्यं वो परिमेदिनी सोपरिधत्तंगाय विष्णुपत्नी महीं देवी माधवी माधवप्रियां लक्ष्मी प्रियसखीं देवीं नमाम्यच्युतवल्लभां धनुर्धराय विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धराः प्रचोदयात् शृण्वन्ति श्रोणामृतस्य गोपाम् पुण्यामस्य उपशृणोमि वाचम् महीं देवीं विष्णुपत्नीमजूर्याम् प्रतीची मे नागुं हविषाय जामः त्रेधा विष्णुरुगायो विचक्रमे महीं दिवं पृथिवीमन्तरिक्षम् तच्छ्रोणैति श्रव इच्छमाना पुण्यग्श्लोकं यजमानाय कृण्वती स्यो न पृथिविभवा नृक्षरा निवेशनी यच्छा नः शर्म सप्रथाः अदितिर्देवा गन्धर्वा मनुष्याः पितरोऽसुरास्तेषां सर्वभूतानाम् आता मेदिनी महता मही सावित्री गायत्री जगत्युर्वी पृथ्वी बहुला विश्वाभूताकतमाकाया सा सत्येत्यमृतेति वसिष्ठः इक्षुशालियवसस्य फलाढ्यैः पारिजाततरुशोभितमूले स्वर्णरत्नमणिमण्डपमध्ये चिन्तयेत् सकललोकधरित्रीम् श्यामां विचित्रां नवरत्नभूषितां चतुर्भुजां तुङ्गपयोधरान्विताम् इन्दीवराक्षीं नवशालिमञ्जरीं सुकन्दधानां शरणं भजामहे सक्तुमिवतित उना पुनन्तो यत्र धीरा मनसा वाचमक्रत अत्रा सखायः सख्यानि जानते भद्रैषान् लक्ष्मीर्निहितादिवाचि अथ दुर्गा सूक्तम् जातवेदसे सुनवामसो मम राति यतो निदहाति वेदः स नः पर्षदति दुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः तामग्निवह्नां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् दुर्गां देवी गुं शरणमहं प्रपद्ये सुतरसि तरसे नमः अग्ने त्वं पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पूश्च पृथ्वी बहुला न उर्वी भवतोकायतनयाय संयोः विश्वानि नो दुर्गः जातवेदस्यन्धुन्न नावादुरितातिपर्षि अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम् पृतनाजितगुंसहमानमुग्रमग्निगुंहुहेम परमात्सधस्थात् स नः पर्षदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होतानव्यश्च सत्सी स्वाम् च अग्ने तनुवम् विप्रयस्व स्वभ्यम् च सौभगमायजस्व गोभिर्जुष्टमयुजो निषिक्तन्तवेन्द्रविष्णोरनु सञ्चरेम नाकस्य पृष्ठमभिसंवसा नो वैष्णवील्लोक इहमादयन्ताम् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् अथ मन्त्रपुष्पम् धाता पुरस्ताद्यमुदा जहर शक्रः प्रभिद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वन्नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वन्नारायणगुं हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुं शाश्वतगुं शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरम् ब्रह्मतत्त्वम् नारायणः परः नारायणपरो ध्याताध्यानम् नारायणः परः यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुंसमुद्रेन्तम् विश्वशम्भुवम् पद्मकोशप्रतीकाशगुं हृदयम् चाप्यथोमुखम् अधो निष्ट्यावितस्यान्ते नाभ्यामुपरि तिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुं शिलाभिस्तुलम् बत्याकोशसन्निभम् तस्यान्ते सुशिरगुं सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतो मुखः सोऽग्रभुग् विभजन् तिष्ठन्नाहारमजरः कविः तिर्यगूर्ध्वमधश्यायीरश्मयस्तस्य सन्तता santapayati svandeha mapadatalamastagah tasya madhye vannishikha aniyo ardhva vyavasthitah nilato yadamadhyasthadvidyullekhe vabhasvara nivadashukavat tanvipitabhasvatyanupama tasya asikhaya madhye paramatma vyavasthitah sabrahma sasivasaharisendrasokcharah paramasvarat yopam pushpam veda pushpavan prajavan pashuvan bhavati chandramava apam pushpam pushpavan prajavan pashuvan bhavati ya evam veda yopamayatanam veda ayatanavan bhavati agnirva apamayatanam ayatanavan bhavati yo agnirayatanam veda ayatanavan bhavati apova agnirayatanam ayatanavan bhavati ya evam veda yopamayatanam veda ayatanavan bhavati vayurva apamayatanam ayatanavan bhavati yopayorayatanam veda ayatanavan bhavati apo vaivayorayatanam ayatanavan bhavati ya evam veda yopamayatanam veda ayatanavan bhavati asau vaitapannapamayatanam ayatanavan bhavati yomushyatapata ayatanam veda ayatanavan bhavati apova amushyatapata ayatanam ayatanavan bhavati ya evam veda yopamayatanam veda ayatanavan bhavati chandramava apamayatanam ayatanavan bhavati yaschandramasa ayatanam veda ayatanavan bhavati apovai chandramasa ayatanam ayatanavan bhavati ya evam veda yopamayatanam veda ayatanavan bhavati nakshatraniva apamayatanam ayatanavan bhavati yo nakshatranamayatanam veda ayatanavan bhavati apo vai nakshatranamayatanam ayatanavan bhavati ya evam veda yopamayatanam veda ayatanavan bhavati parjanyova apamayatanam ayatanavan bhavati yah parjanyasyayatanam veda ayatanavan bhavati apo vai parjanyasyayatanam ayatanavan bhavati ya evam veda yopamayatanam veda आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यः संवत्सरस्यायतनम् वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवं वेद योऽप्सुनावं प्रतिष्ठितां वेद प्रत्येव तिष्ठति किं तद्विष्णोर्बलबाहुः का दीप्तिः किं परायणम् एको यद्धारयद्देवः एजतीरोदसी उभे वातद्विष्णोर्बलबाहुः अक्षराद्दीप्तिरुच्यते त्रिपदाद्धारयद्देवः यद्विष्णोरेकमुत्तमम् आतनुष्वप्रतनुष्व बुद्धमाधमसन्धम आदित्ये चन्द्रवर्णानाम् गर्भमाधेहि यः पुमान् इतः सिक्तगुं सूर्यगतम् चन्द्रमसे रसङ्कृधि वारादञ्जनयाग्रेऽग्न्यम् य एको रुद्र उच्यते अष्टाचक्रानवद्वारा देवानाम् पुरयोध्या तस्यागुं हिरण्मयः कोशः स्वर्गो लोको ज्योतिषावृतः यो वैताम् ब्रह्मणो वेद अमृतेनावृताम् पुरीम् तस्मै ब्रह्म च ब्रह्मा च आयुः कीर्तिम् प्रजाम् ददुः पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिः प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् वज्रनखाय विद्महे तीक्ष्णदग्गुष्ट्राय धीमहि तन्नो नारसिगुंहः प्रचोदयात् भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात् वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्निः प्रचोदयात् कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् राजाधिराजाय प्रसह्य साहिने नमो वयं वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः ॐ तद्ब्रह्मा ॐ तद्वायुः ॐ तदात्मा ॐ तत्सत्यम् ॐ तत्सर्वम् ॐ तत्पुरोर्नमः अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वगुं रुद्रस्त्वं विष्णुस्त्वं ब्रह्मत्वं प्रजापतिः त्वं तदाप आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् अथैतं विष्णवे चरुन्निर्वपति यज्ञो वै विष्णुः यज्ञ एवान्ततः प्रतिष्ठति सोऽत्र जुहोति विष्णवे स्वाहा यज्ञाय स्वाहा प्रतिष्ठायै स्वाहेति नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो
अथ विष्णु गायत्री ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॐ नारायणाय विद्महे तन्नो विष्णुः प्रचोदयात् ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॐ नारायणाय विद्महे तन्नो विष्णुः प्रचोदयात् ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात्
अथ शान्तिमन्त्राः पृथिवी शान्ता साग्निना शान्ता सामे शान्ता शुचगुं शमयतु अन्तरिक्षगुं शान्तं दद्वायुना शान्तं तन्मे शान्तगुं शुचगुं शमयतु द्यौः शान्ता सादित्येन शान्ता सा मे शान्ता शुचगुं शमयतु पृथिवी शान्तिरन्तरिक्षगुं शान्तिर्द्यौः शान्तिर्दिशान्तिरवान्तरदिशान्तिरग्निः शान्तिर्वायुः शान्तिरादित्यः शान्तिश्चन्द्रमा शान्तिर्नक्षत्राणि शान्तिरापश्चान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्गौः शान्तिरजा शान्तिरश्वशान्तिः पुरुषः शान्तिर्ब्रह्म शान्तिर्ब्राह्मणः शान्तिश्शान्तिरेव शान्तिश्शान्तिर्मे अस्तु शान्तिः शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्येवेन्द्रिये प्रतितिष्ठति